इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। मुन्था चक्रवातः गतरात्रौ आन्ध्रप्रदेशस्य यनम तटस्य च मचिलीपट्टणम् कलिङ्गपट्टणम् नगरयोः मध्ये 90 किलोमीटर परिमितं यावत् प्रतिहोरायाः वायुवेगेन प्रविष्टम्। भारत ऋतुविभागेन उक्तं यत् आन्ध्रप्रदेशस्य काकीनाडा नगरस्य समीपे गतसायं 7 मुन्था चक्रवातः भूमौ प्रवेशम् आरब्धवान्। अनेन चक्रवातेन आन्ध्रप्रदेशे प्रचण्डवृष्टिः अभवत्, येन राज्ये 43,000 हेक्टेयर क्षेत्रेषु सस्यानां क्षतिः अभवत्। ऋतुविभागेन पूर्वानुमितं यत् अद्य आन्ध्रप्रदेशस्य यनमप्रदेशस्य च अधिकांशेषु स्थानेषु लघुतः मध्यमवृष्टिः, कतिपयेषु स्थानेषु च अतिवृष्टिः भविष्यति इति। तस्मिन्नेव काले पृथक् पृथक् स्थानेषु 20 सेण्टीमीटर यावत् अत्यधिकवृष्टेः सम्भावना विद्यते। राज्य आपत् प्रबन्धन प्राधिकरणस्य नियन्त्रण प्रकोष्ठे चक्रवातस्यानन्तरं स्थितेः समीक्षानन्तरं ओडिशा राज्यस्य मुख्यमन्त्री श्रीमाझी इत्येषः अवदत् यत् केषुचित् क्षेत्रेषु लघु भूस्खलनस्य वृक्षाणाम् उन्मूलनस्य च सूचनाः सन्ति। राष्ट्रिय आपत् प्रतिक्रियाबलस्य 26 नियोजितानि सन्ति। तेषु 12 आन्ध्रप्रदेशे, 6 ओडिशाराज्ये, 3 उत्तर तमिलनाडुप्रदेशे च सन्ति। छत्तीसगढ़ तेलंगाना प्रदेशयोः अपि कर्मचारिणः नियुक्ताः सन्ति। केन्द्रीय स्वास्थ्य मन्त्रालयः आन्ध्रप्रदेशः, ओडिशा, तमिलनाडु इत्यादीनां पूर्वीय तटीय राज्यानां वरिष्ठैः अधिकारिभिः च सह मुन्था चक्रवातस्य सज्जता उपायानां समीक्षा कृतवान्। रेलमन्त्री अश्विनी वैष्णवः आन्ध्रप्रदेशस्य मुख्यमन्त्रिणा चन्द्रबाबु नायडू इत्यनेन, ओडिशा राज्यस्य मुख्यमन्त्रिणा मोहन चरणमाझी इत्यनेन च सह सम्बद्धैः रेल अधिकारिभिः सह मुन्था चक्रवातस्य अनन्तरं उभयोः राज्ययोः तक्षणस्य पुनः कार्याचरणस्य विषये वार्तालापम् अकरोत्। सामाजिक अन्तर्जालीय सन्देशे श्रीवैष्णवः अवदत् यत् चक्रवातस्य दृष्ट्या विभागीय क्षेत्रे नियन्त्रणकक्षाः संस्थापिताः सन्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य मुम्बईनगरे द मैरीटाइम लीडर्स कॉन्क्लेव इत्याख्यं सम्मेलनं सम्बोधयिष्यति। अस्मिन्नवसरे सः ऐषमः भारतस्य समुद्रीय सप्ताहस्य वैश्विक समुद्रीय सीईओ मञ्चस्य अध्यक्षताम् अपि करिष्यति। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे श्रीमोदी अलिखत् यत् समुद्रीय क्षेत्रे सहयोग संवर्धनाय तथा च तस्मिन्नेव भारतस्य परिष्कारान् प्रकाशनाय सम्मेलनम् एकः उत्तमः मञ्चः अस्ति इति। अत्रान्तरे वार्ताहर सम्मेलनं सम्बोधयन् केन्द्रीय पत्तन नौवहन जलमार्ग मन्त्री सर्बानन्द सोनोवालः अवदत् यत् श्रीमोदिनः नेतृत्वे केवलं 11 एव भारतस्य समुद्रीय क्षेत्रस्य पत्तन क्षमता प्रायः द्विगुणिता जाता। केन्द्रीय मन्त्रिमण्डलेन 8 केन्द्रीय वेतन आयोगस्य कार्यक्षेत्रस्य अनुमोदनं कृतम्। ह्यः नवदिल्ल्यां मन्त्रिमण्डलीयोपवेशनानन्तरं वार्ताहरान् ज्ञापयन् सूचना प्रसारणमन्त्री अश्विनी वैष्णवः अवदत् यत् आयोगः गठनानन्तरं 18 स्वस्य अनुशंसाः प्रस्तोष्यति। सः सूचितवान् यत् आयोगे एकः अध्यक्षः, एकः अंशकालिकः सदस्यः, एकः सचिवः च एते भविष्यन्ति।
एड्स पे कमीशन को आज माननीय प्रधानमंत्री जी ने अप्रूव किया। एड्स पे कमीशन का कॉम्पोजिशन और उसमें क्या टर्म्स ऑफ रेफरेंस रहेंगे, कितना टाइम पीरियड रहेगा, वो सारा आज अप्रूवल हुआ और ये बहुत बड़ा महत्वपूर्ण फैसला है। अब करीब करीब सभी राज्य सरकारों ने इसमें सहयोग दिया है। 18 के अंदर ये रिपोर्ट आएगी इसकी, एड्स पे कमीशन। जस्टिस रंजना प्रकाश देसाई को इसका चेयरपर्सन बनाया गया, आप सब पुलक घोष फ्रॉम एंड मिस्टर पंकज जैन हु इज सेक्रेटरी पेट्रोलियम एंड नेचुरल गैस विल बी दी मेंबर।
केन्द्रीय श्रम वृत्यावसर युवक कार्याणां क्रीडामन्त्री डॉ मनसुख मांडवीयः अद्य सायंकाले नवदिल्ल्याम् अस्य वर्षस्य सरदार पटेल स्मृति व्याख्यानं प्रदास्यति। अस्मिन् अवसरे सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगनः अपि उपस्थितः भविष्यति। इति वार्ताः।